एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तोत्री रत्नावली शर्मा। आगामिनः फाल्गुनमासस्य एकविंशे दिवसे सम्पत्स्यमानस्य प्रतिनिधिसभा सदस्यानां निर्वाचनस्य कृते अद्य प्रत्याशितायाः पञ्जीकरणस्य कार्यक्रमस्य कृते सम्पूर्णपूर्वकार्याणि प्रपूरितानि सन्तीति निर्वाचनायोगेन ज्ञापितं वर्तते। प्रत्याशिभिः स्वस्वनिर्वाचनक्षेत्रे विद्यमानान् मुख्यनिर्वाचनाधिकृतस्य कार्यालयान् निर्वाचनाधिकृतस्य कार्यालयान् च प्राप्य मनोनयनपत्रस्य पञ्जीकरणं कारयितुं शक्यते इति आयोगेन ज्ञापितमस्ति। प्रत्याशितायाः मनोनयनपत्रस्य पञ्जीकरणस्य समये प्रत्याशिभिः नेपाली नागरिकतायाः प्रमाणपत्रस्य प्रतिलिपिः, मतदातृपरिचयपत्रस्य प्रतिलिपिः, अन्तिममतदातृनामावल्यां यत्र नाम अस्ति तस्य प्रमाणपत्रं, कुत्रापि पारिश्रमिकयुते पदे विद्यमाना अस्ति चेत् ततः त्यागपत्रप्रदानस्य पत्रं, प्रस्तावकेन समर्थकेन सह हस्ताक्षराणि कृत्वा नियमपूर्वकं प्रपूरितं मनोनयनपत्रं च प्रस्तुतानि वर्तन्ते इति आयोगेन ज्ञापितमस्ति। अत्रान्तरे कार्यवाहकप्रमुखनिर्वाचनायुक्तेन रामप्रसादभण्डारिणा ह्यः सार्वजनिकसूचनां प्रकाश्य अद्य प्रातः दशवादनात् सायं पञ्चवादनं यावत् आयोगेन निर्धारितैः प्रपत्रैः सह सम्बद्धनिर्वाचनक्षेत्रात् मनोनयनपत्रस्य पञ्जीकरणाय सर्वे इच्छुकप्रत्याशिनः अनुरुद्धाः वर्तन्ते। निर्धारितसमयस्य अभ्यन्तरे अद्य मनोनयनपत्रस्य पञ्जीकरणं भविष्यति। पञ्जीकरणानन्तरम् अनुसन्धानादिविधेः प्रक्रिया अग्रे वर्धिष्यते इति आयोगेन ज्ञापितमस्ति। मतदातॄणां निर्वाचनसम्बद्धजिज्ञासायाः समाधानाय निःशुल्करूपेण विज्ञापनस्य उद्देश्येन ह्यस्तनदिवसात् निर्वाचनायोगेन दूरभाषसम्पर्ककेन्द्रं सञ्चालितं वर्तते। निर्वाचनेन सम्बद्धा काश्चन जिज्ञासाः सन्ति चेत् निःशुल्करूपेण 1102 चेति अङ्केषु सम्पर्कः कर्तुं शक्यते इति निर्वाचनायोगस्य प्रवक्ता नारायणप्रसादभट्टराय असूचयत्। प्रधानमन्त्री सुशीला कार्की सर्वेषां समुदायानां मौलिकानां पर्वणां भाषायाः संस्कृतेः परिचयस्य च संरक्षणं प्रवर्धनञ्च प्रति सर्वकारः सदैव प्रतिबद्धोऽस्ति इति विश्वासं दापयति। सोनाम लोछार पर्वणः अवसरे नेपाल तामाङ घेदुङ इति संस्थया ह्यः टुडिखेलस्थाने आयोजितं तामाङ सांस्कृतिक महोत्सवं शुभकामना आदान प्रदान कार्यक्रमं च सम्बोधयन्ती प्रधानमन्त्री कार्की सर्वेषां जातीनां मौलिकी परम्पराणां संस्कृतेः जीवनपद्धतेश्च सम्मानः संरक्षणं प्रवर्धनं च राज्यस्य दायित्वमस्ति इति उक्तवती। लोछार सदृश पर्वभिः आत्मीयतायाः मौलिकतायाः राष्ट्रियैकतायाः भावः प्रशिक्ष्यते इति चर्चयन्ति प्रधानमन्त्री कार्की अस्माकं सांस्कृतिकः परिचयस्य आविश्वं प्रसारणाय बलं प्रदत्तवती। नेकपा एमाले दलस्य अध्यक्षः केपी शर्मा ओली निगदति आगामि निर्वाचनं न केवलं सत्तायाः प्रतिस्पर्धा वर्तते अपितु देशस्य भविष्यनिर्माणेन सह सम्पृक्तमस्ति। ह्यः झापा जनपदे पत्रकारैः सह भाषमाणः अध्यक्षः ओली स्पष्टैः विचारैः देशनिर्माणस्य प्रस्तावेन सह एमाले दलं जनसमक्षम् आगतमस्ति इति प्रावोचत्। अध्यक्षः ओली दलाभ्यन्तरे प्रत्याशिनां प्रचयनस्य मनोनयनस्य च विषये मतभेदो नास्ति इति असूचयत्। सञ्चार सूचना प्रविधि मन्त्रिणा जगदीश खरेलेन मन्त्रीपदात् त्यागपत्रं दत्तमस्ति। मन्त्री खरेलः ह्यः प्रधानमन्त्रिणः सुशीला कार्कीणः समक्षं त्यागपत्रं प्रास्तौत्। मन्त्री खरेलः त्यागपत्रे वर्तमान सर्वकारः निर्दलीय सर्वकारोऽस्ति इति परिचयस्य संरक्षणाय दलीय राजनीतौ प्रवेशात् पूर्वं मन्त्रीपदात् त्यागपत्रं प्रदत्तमस्ति इति उल्लिखितवान् वर्तते। अत्रान्तरे सर्वकारस्य प्रवक्त्रा संचार सूचना प्रविधि मन्त्रिणा प्रदत्तस्य त्यागपत्रस्य अनन्तरं संचार सूचना प्रविधि मन्त्रालयेन मन्त्रिणः प्रास्थापनिकम् अभिवादनं विहितमस्ति। मन्त्रिणा खरेलेन प्रतिनिधिसभायाः निर्वाचनस्य कृते प्रत्याशितायाः प्रस्तुतेः निर्णयानन्तरं सुपदात् त्यागपत्रं प्रदानस्य पश्चात् मन्त्रालयेन आयोजिते कार्यक्रमे मन्त्री खरेलः स्वकीय कार्यकाले महत्त्वपूर्णानि कार्याणि सम्भूतानि सन्ति इति चर्चयन् आत्मना लब्धं ज्ञानम् अनुभवश्च देशहिताय उपयोक्ष्यन्ते इति समस्पष्टयत्। अत्रान्तरे युवखेलकूर्दमन्त्रिणा बब्लुगुप्ता इत्यनेन च ह्यः मन्त्रिपदात् त्यागपत्रं प्रदत्तमस्ति। रासोपा नामना राष्ट्रिय स्वतन्त्र दलेन मधेस प्रदेशस्य राजधान्यां जनकपुर धामनी ह्यो नैर्वाचनिक सभा समायोजिता वर्तते। परिवर्तनस्य उद्घोष सभा इति नाम प्रदाय आयोजिते कार्यक्रमे रासोपा दलस्य वरिष्ठ नेता बालेन्द्र शाह निर्वाचनेन स्वस्य अधिकारान् स्वस्यैव प्रदेशेषु प्राप्तुं सुदृढाधारः निर्माष्यते इति धारणां व्यक्तवान्। वरिष्ठ नेता शाह मधेस प्रदेशस्य राजधान्यां जनकपुरधामनी ऐतिहासिक धार्मिक स्थले विकासः सम्भूतो नास्ति इति स्थित्या आत्मना दुःखम् अनुभूयमानम् अस्ति इति अगदत्। कार्यक्रमं रासोपा दलस्य सभापतिः रवि लामिछाने अन्य दलस्य अन्य नेतारश्च सम्बोधितवन्तः आसन्। वीर चिकित्सालये आकस्मिक चिकित्सा कक्षाणां विस्तारो विहितोऽस्ति। चिकित्सालयस्य निर्देशकः डाक्टर दिलीप शर्मा रोगिणाम् आधिक्यं लक्ष्यीकृत्य पञ्चविंशतिः आकस्मिक कक्षाः विस्तारिताः सन्ति इति असूचयत्। आकस्मिक कक्षेषु रोगिणां सहयोगिभ्यः जनेभ्यः भोजन निर्माणस्य व्यवस्थापि विहिता अस्ति। चिकित्सालये सम्प्रति प्रतिदिनं 3,000+ रोगिणः उपचाराय प्राप्नुवन्ति। चिकित्सा व्यवसायी दुर्गा प्रसाई प्रहरिणा ह्य पोखरा नगरात् निगृहीतो वर्तते। ह्यदिवा पोखरा नगरे निगृहीतः प्रसाई काष्ठमण्डपं प्रेषयिष्यते इति कास्की जनपद प्रहरी कार्यालयस्य प्रमुखः प्रहरी उपरीक्षकः नवीन कार्की असूचयत् इति समाचारः।